एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा प्रतिनिधि सभायाः ह्यस्तनोपवेशे प्रधानमन्त्रिणः बालेन्द्र शाहस्य अभिव्यक्तेर्विषये स्पष्टीकरणम् अभियाच्य प्रतिपक्षिदलैः अवरोध सर्जनस्य पश्चात् अद्य यावत् उपवेशः स्थगितीकृतो वर्तते। नेपाल भारतयोः सीमाक्षेत्रस्य विषये प्रधानमन्त्रिणा शाहेन परह्य प्रतिनिधि सभायाः उपवेशे त्रुटिपूर्णा तथ्यहीना च अभिव्यक्तिः प्रदत्ता अस्ति इति उक्त्वा प्रतिपक्षिदलानां सांसदैः अवरोधस्य सर्जनानन्तरं सभामुखेन डोलप्रसाद अर्यालेन ह्यः द्वितीयवारम् उपविष्ट उपवेशोऽपि स्थगितीकर्तव्यः आसीत्। अत्रान्तरे प्रतिनिधि सभायाः रविवासरस्य उपवेशे संसदीय मर्यादित व्यवहारस्य प्रदर्शकाणां सांसदानां अनुसन्धानाय समितिः संघटिता अस्ति। सभामुखः डोलप्रसाद अर्यालः ह्यस्तनोपवेशे सप्ताहनां दिनानाम् अभ्यन्तरे प्रतिवेदनं निर्माय प्रस्तुत्यै प्रतिनिधि सभायाः सचिवस्य प्रकाश अधिकारिणः संयोजकत्वे त्रिसदस्यीया समितिः संघटिता अस्ति इति असूचयत्। तत्पूर्वं सभायाः ह्य उपविष्टे प्रथमोपवेशे प्रतिपक्षिदलानां सांसदैः प्रधानमन्त्रिणा बालेन्द्र शाहेन रविवासरस्य उपवेशे प्रदत्तायाः अभिव्यक्तेः अभिलेखालयात् अपसारणस्य याचनां विधाय अवरोधः सृष्टः आसीत्। उपवेशे प्रतिपक्षिदलानां पक्षतः सांसदः निष्कल राई, ऐन बहादुर महर, युवराज दुलालः, आरएन राई, ज्ञान बहादुर साई च प्रधानमन्त्रिणः अभिव्यक्तिर्विषये स्वस्व दलस्य धारणां व्यक्तवन्तः आसन्। प्रतिनिधि सभायाः अपर उपवेशः अद्य दिवा एकवादने पुनर्वसति। एवमेव राष्ट्रिय सभायाः ह्यस्तनोपवेशेऽपि सांसदानां विरोधस्य पश्चात् स्थगितो वर्तते। प्रधानमन्त्रिणा बालेन्द्र शाहेन परह्य रविवासरे प्रतिनिधि सभायाः उपवेशे प्रदत्ताम् अभिव्यक्तिं प्रति विरोधं प्रकटय्य सांसदैः नेपालेन भारतस्य सीमाक्षेत्रम् अतिक्रान्तम् अस्ति इत्युक्त्वा प्रदत्ता अभिव्यक्तिः राष्ट्रहित विपरीता अस्ति इति कथयद्भिः अभिव्यक्तिं संशोधयितुम् अभियाचितं वर्तते। उपवेशे राष्ट्रिय सभायाः अध्यक्षेण नारायण प्रसाद दाहालेन विभिन्न माध्यमेभ्य प्रधानमन्त्रिणः शाहस्य ध्यानाकर्षणं विधाय समस्यायाः समाधान करिष्यते इत्युक्त्वा सभायाः सञ्चालनस्य कार्याय नैरन्तर्यं प्रदाय स्वस्वदायित्वं पूरयितुं सांसदाः अनुरुद्धा आसन्। राष्ट्रिय सभायाः अपरोपवेशः अद्य दिवा सपादैकवादने वसति। राष्ट्रिय स्वतन्त्र दलस्य सभापतिः रवि लामिछाने पञ्चदिवसात्मकस्य भारत भ्रमणस्य क्रमे ह्यो नवदेहलीं सम्प्राप्तोऽस्ति। भारतीय जनता दलस्य अध्यक्षस्य नितिन नवीन इत्यस्य निमन्त्रणायां नवदेहली प्राप्तं लामिछानेभिधं इन्दिरा गान्धी अन्ताराष्ट्रिय विमानस्थले भारतीय जनता दलस्य महासचिवः विदेश विभाग प्रमुखश्च स्वागतं विहितवन्तौ। भ्रमणस्य क्रमे सभापतिः लामिछाने उच्चस्तरीयां राजनैतिकीं कूटनीतिकीं च मेलवार्तां करिष्यति। सभापतिना लामिछाने विधेन नेपाली समुदायैः दलस्य शुभेच्छुकैस्सहापि मेलवार्ता करिष्यते। दैलेख जनपदस्य भैरवी ग्रामपालिकायां जीपयानस्य दुर्घटनायां त्रयो जनाः मृताः सन्ति। दुर्घटनायां पञ्चजनाः आहताः वर्तन्ते। पूर्वेद्युः सुर्खेत जनपदात् कालीकोट जनपदं प्रति प्रस्थीयमानं जीपयानं भैरवी ग्रामपालिकायाः पञ्चमवडा क्षेत्रवर्तिनी कालगौडा स्थाने दुर्घटितम् आसीत्। दुर्घटनायां कालीकोट जनपदस्य शुभकालिका ग्रामपालिकायाः पञ्चमवडा क्षेत्रस्य जीपयान चालकः कलबहादुर रोकाय, चतुर्थवडाक्षेत्रस्य अष्टात्रिंशत् वर्षीयः मित्र सुनारः, षष्ठवडाक्षेत्रस्य पञ्चपञ्चाशत् वर्षीया पुल्ती सराविक च मृताः सन्ति इति प्रहरिणा ज्ञापितं वर्तते। आहतानां दैलेख जनपद चिकित्सालये उपचारः विधीयमानोऽस्ति इति प्रहरिणा ज्ञापितमस्ति। दुर्घटनायाः अनुसन्धानाय प्रहरी प्रमुखस्य श्रवण कुमार विक इत्यस्य संयोजकत्वे अनुसन्धान समितिः संघटिता अस्ति। एवमेव दाङ जनपद दस्य तुलसीपुर स्थाने ट्रिपरयानस्य प्रहारेण द्वौ जनौ मृतौ स्तः। मृतकौ लमही नगरपालिकायाः पञ्चमवडा क्षेत्रस्य पञ्चत्रिंशत् वर्षीयः मनोज नेपाली, तस्य पुत्र पञ्चवर्षीयः मीनराज च वर्तेते इति तुलसीपुरवर्तिनः स्थानीय प्रहरी कार्यालयस्य प्रमुख प्रहरी नायब परीक्षकः होमराज पराजुली असूचयत्। राष्ट्रिय स्वतन्त्र दलेन आगामिन आषाढ़ मासस्य सप्तम दिवसात नवमं दिवसं यावत् चितवन जनपदे आयोक्ष्य मानस्य महाधिवेशनस्य कृते पूर्व कार्यम तीव्रतया विधीयमानं वर्तते। महाधिवेशनं भव्यरूपेण व्यवस्थित रूपेण च सम्पादयितुं दलसभापतेः रवि लामिछानेभिदस्य अध्यक्षतायां महाधिवेशन मूलायोजक समितिः संघटिता अस्ति इति महामन्त्री कविन्द्र बुर्लाकोटी असूचयत्। मूलायोजक समितौ दलोपसभापतिः अर्थमन्त्री च स्वर्णिम वाग्ले, सह महामन्त्री विपिन कुमार आचार्य, कोषाध्यक्ष अलीमा अधिकारी, सह कोषाध्यक्ष अवसुमाया तामाङ, प्रवक्ता मनीष झा, सचिवालय सदस्य विराज भक्त श्रेष्ठ, दीपक राज बोहरा च वर्तेथे। एवमेव समितौ गणेश पराजुली, विधि मन्त्री सोभिता गौतम, परराष्ट्र मन्त्री शिशिर खनाल, हरि ढकाल, सरिता गेवाली, सागर ढकाल च वर्तन्ते। समितये पूर्णताया कृते दलस्य सर्वे केन्द्रीय सदस्या, सत्तानां प्रदेशानां प्रदेश सभापतयश्च मूलायोजक समितौ स्थापिता वर्तन्ते इति महामन्त्री बुर्लाकोटी अज्ञापयत्। संचार सूचना प्रविधि मन्त्रिणा डाक्टर विक्रम तिमिलसेना विदेन सह अमेरिका देशस्य सार्वजनिक कौटनीतिक सम्बद्धया उपविदेश मन्त्रिणा सारा वी रोजर्स इत्यनया ह्य शिष्टाचार मेलवार्ता विहिता अस्ति। इति समाचारः।